सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र रूपस्य लक्षणं। रूपस्य लक्षणे अस्माकं मूलविषयः अस्ति धलसार्थक्यं। तत्र लक्षणवाक्ये धलद्रयमस्ति इति कृत्वा तेषां सार्थक्यम् अपेक्षितम् अस्ति। तत्र धलत्रयम् अस्ति, धलसार्थक्यं नाम किं? तत्र यदि कस्यापि लक्षणं वक्तुम् इच्छामः, सः पदार्थः लक्ष्यं भवति, तस्य लक्षणं वक्तुम् इच्छामः, तत्र दोषत्रयं न भवेत्। तत्र दोषत्रयं किम् अस्ति? तत्र प्रथमविधदोषः कः अस्ति? तत्र शोभा भगिनी, दोषत्रयं किं भवति तत्र? यत्
लक्षणवाक्ये दोषत्रयं, तत्र अव्याप्तिः, अव्याप्तिदोषः भवितुम् अर्हति, अतिव्याप्तिदोषः भवितुम् अर्हति, अथवा असम्भवदोषः भवितुम् अर्हति।
समीचीनं। तर्हि तत्र दोषत्रयम् अपि न तत्र न भवेत् तदा एव तत्र लक्षणम् इति वक्तुं शक्नुमः। तत्र लक्षणम् इति किमपि विशिष्ट, कोऽपि विशिष्टगुणः यः वर्तते तत्र वयं वक्तुम् इच्छामः तत्र लक्ष्यम् अस्ति, एतद् लक्ष्यम् इति चिन्तयतु, एतद् लक्ष्यं, तर्हि तत्र वयं चिन्तयामः तत्र लक्ष्ये अस्ति। तत्र किम् अभवत्? तत्र एतदेव लक्ष्यम् इति चिन्तयतु, लक्ष्यम् एतदेव लक्ष्यम् अस्ति, तर्हि अव्याप्तिदोषः, अतिव्याप्तिदोषः अपि असम्भवदोषः, तत्र दोषत्रयं भवितुम् अर्हेत्, किन्तु किमपि एकमपि एकः अपि दोषः न भवेत् इति अस्माकम् इच्छा, तदैव तत्र लक्षणम् इति वक्तुम् इच्छामः। तर्हि तत्र उषा भगिनी, तत्र अव्याप्तिदोषः नाम किम्?
अव्याप्तिदोषः इति सर्वेषु लक्ष्येषु न वर्तते चेत् अव्याप्तिदोषः इति भवति।
उत्तमं। तर्हि इदानीं तत्र यदि एतत् स्वीकुर्मः, तत्र लक्षणं केवलम् अत्र अस्ति, अत्र अव्याप्तिदोषः वा अतिव्याप्तिदोषः वा?
अव्याप्तिदोषः महोदय।
यतोहि तत्र
सर्वे लक्ष्ये कृते नास्ति,
नास्ति नाम लक्ष्ये केषुचित् लक्ष्येषु अस्ति, किन्तु कुत्रचित् नास्ति,
नास्ति
नास्ति इति तत्र अव्याप्ति,
अव्याप्ति
समीचीनम्, अव्याप्तिदोषः समीचीनम्। विमला भगिनी, अतिव्याप्तिदोषः नाम किम्?
अलक्ष्ये अपि यत् वर्तते, यदि लक्ष्ये अपि अस्ति, अलक्ष्येषु अपि अस्ति, तर्हि तत् अतिव्याप्तिः इति उच्यते,
इति उच्यते। समीचीनं। तर्हि अतिव्याप्ति नाम तत्र लक्ष्ये अस्ति, लक्ष्ये तु अस्ति, किन्तु तत्र अस्तु, तत्र मम चित्रं सम्यक् भवेत् तदैव तत्र अस्तु, तत्र लक्ष्ये अस्ति अपि तत्र यदि एतद् तत्र किञ्चिदपि तत्र नाम केवलं तत्र यदि पश्यामः तत्र अलक्ष्ये नाम किम्? अलक्ष्यम् इत्युक्ते अलक्ष्येषु इत्युक्ते एतत्र सर्वत्र तत्र विजातीयेषु लक्ष्यं केवलम् अस्ति, केवलम् एतदेव। तर्हि तत्र लोकम् इति एतद् बृहत् चित्रम् इति चिन्तयामः, एतद् लोकमस्ति, लोके केवलम् एतद् अस्माकं लक्ष्यम् अस्ति, अतः अत्र एतत् सर्वम् अलक्ष्यम्। अत्र कुत्रापि किञ्चित् अत्र अस्ति चेत् इदानीम् अतिव्याप्तिदोषः अभवत् वा? अतिव्याप्तिदोषः अभवत्, तत्र एकमेव अलक्ष्यम् अस्ति यत् यस्मिन् लक्षणम् अस्ति चेत् तत्र अतिव्याप्तिदोषः अभवत्। लक्षणम् अत्र अस्ति, अत्र नास्ति, अत्र नास्ति, अत्र नास्ति, अत्र नास्ति, किन्तु अत्र अस्ति, अपि एतद् अलक्ष्यमस्ति, विजातीयः पदार्थः अस्ति, अत्र अस्ति चेत् लक्षणं, तर्हि तत् सम्यक् लक्षणं नास्ति। लक्षणम् इति यत् चिन्तयामः तस्मिन् लक्षणे अतिव्याप्तिदोषः अस्ति। समीचीनं भगिनि, हा अस्तु, अग्रे तत्र हा योगेन्द्रमहोदय, इदानीं तत्र असम्भवदोषः नाम किम्?
लक्ष्ये नास्ति,
लक्ष्ये नास्ति एव, तत् तर्हि तत्र असम्भवदोषः नाम बहिः अस्ति न वा इति चिन्ता नास्ति, किन्तु अत्र तु नास्ति, अत्र कुत्रापि, हा लक्ष्ये कुत्रापि नास्ति, तदा असम्भवदोषः इति भवति। तर्हि असम्भवदोषः लक्ष्ये कुत्रापि नास्ति, लक्षणं यत् इष्टम्, अहं वयं चिन्तयामः एतद् लक्षणं भवेत् इति चिन्तयामः, तद् इष्टं लक्षणं कुत्रापि नास्ति चेत् लक्ष्ये, तथा असम्भवदोषः लक्ष्ये सर्वत्र नास्ति इत्युक्ते तदा अव्याप्तिदोषः। लक्ष्ये सर्वत्र अस्ति किन्तु अन्यत्रापि एकमपि अलक्ष्ये एके अलक्ष्ये अपि अस्ति चेत् अतिव्याप्तिदोषः भवति। अतः अतिव्याप्तिदोषः कदा अस्ति इति कदा जानीमः? यदि एकम् अलक्ष्यं प्रदर्शयामः यस्मिन् इष्टं लक्षणं वर्तते, तर्हि तत्र दोषः कस्य दोषः इति, तत्र नीता भगिनी, तत्र दोषरहितम् इति वदामः, दोषराहित्यं कस्मिन् दोषराहित्यं भवेत्?
अस्माकं लक्षणवाक्ये
लक्षणे लक्षणे साक्षात् लक्षणे यद् इच्छामः, यद् वयम् इच्छामः तत्र लक्ष्ये भवेत्। अस्माकम् इच्छा किमस्ति? यत्र लक्षणं तत्रैव लक्षणं, केवलं लक्ष्ये अस्ति, सर्वत्र अस्ति, अन्यत्र नास्ति, खलु? तर्हि यदि लक्षणे एतादृशी तत्र नास्ति चेत् तदा वयं यदि लक्षणं लक्ष्ये सर्वत्र नास्ति अथवा लक्ष्यं विहाय अन्यत्र अस्ति अथवा लक्ष्ये नास्ति एव, तर्हि दोषः भवति। दोषः कस्य दोषः? लक्षणस्य दोषः इति। तर्हि लक्षणे दोषः अस्ति, इष्टलक्षणे दोषः वर्तते, तर्हि साक्षात् लक्षणं नास्ति, खलु? यत् लक्षणम् इति इच्छामः प्रथमतया तत्र दोषराहित्यम् अस्ति न वा इति परिशील्य एव तद् लक्षणं न वा इति वक्तुं शक्नुमः, खलु?
आम् आम्।
अतः लक्षणे इष्टलक्षणे इष्टपदार्थे इष्टपदार्थः यत् यं वयं चिन्तयामः लक्षणं भवति इति, तस्मिन् पदार्थे दोषराहित्यं भवेत्। समीचीनं वा?
आम् आम्।
अस्तु, इदानीं तत्र एकस्य साधारण उदाहरणस्य तत्र आवश्यकता अस्ति इति चिन्तयामि, तर्हि तस्तु एकवारं तत्र लौकिक उदाहरणं परिशीलयामः, तदनन्तरं तत्र मूलविषयं गच्छामः। तर्हि नूतनतया के आगतवन्तः, नामानि उच्यताम्?
अशोकः अस्मि।
अशोकः महोदय नमस्कारः। का?
प्रेमलता अस्मि महोदय।
प्रेमलता भगिनि नमस्कारः भगिनि। अन्य
धनश्री अस्मि महोदय।
धनश्री भगिनि, हा धनश्री भगिनि नमस्कारः भगिनि।
नमस्कारः
श्री भगिनि, नमस्कारः नमस्कारः। अन्य
कुत्र? चन्द्रमदेवी नमस्कारः।
चन्द्रपति भगिनी नमस्कारः. चन्द्रपति भगिनी नमस्कारः. अन्य कोऽपि अस्ति वा? अस्तु अस्तु तर्हि तर्हि तत्र साधारण उदाहरणं तत्र लौकिक उदाहरणं नाम तत्र त्रिंशत् छात्राः सन्ति इति चिन्तयतु. वर्गे कस्मिन् वर्गे त्रिंशत् छात्राः सन्ति, तेषु तत्र विंशतिछात्राः तत्र हिन्दीभाषां जानन्ति. अपि विंशतिछात्राः तत्र आङ्ग्लभाषां जानन्ति इति चिन्तयतु. आङ्ग्लभाषा तृतीय एव तत्र आङ्ग्ल अस्तु आङ्ग्लभाषां जानन्ति इति. तर्हि तत्र कोऽपि वदति वा तत्र कति छात्राः सन्ति ये आङ्ग्लभाषामपि जानन्ति हिन्दीभाषामपि जानन्ति? सन्ति वा तत्र जनाः छात्राः ये हिन्दीभाषामपि जानन्ति आङ्ग्लभाषामपि जानन्ति?
दश महोदय.
दश? हा दशजनाः दशछात्राः हिन्दीभाषां जानन्ति आङ्ग्लभाषामपि जानन्ति. तर्हि एतस्य विषयस्य तत्र चित्ररूपेण निदर्शनं कुर्वन्ति. वेन् डायग्राम् इति उच्यन्ते. तत्र यदि तत्र हिन्दीभाषायाः ये छात्राः हिन्दीभाषां जानन्ति ते अत्र सन्ति इति चिन्तयतु. अपि यत्र तत्र प्रायश एतादृशी श्रोत्या इति एव अपि तत्र आङ्ग्लभाषा ये जानन्ति ते अत्र सन्ति इत्युक्ते तत्र तर्हि तत्र अत्र सन्ति जनाः ये हिन्दीभाषामपि जानन्ति आङ्ग्लभाषामपि जानन्ति. तर्हि यदि तत्र मिलित्वा केवलं त्रिंशत् छात्राः एव सन्ति चेत् अपि तत्र विंशत् अस्ति अत्रापि विंशतिः अस्ति तर्हि मिलित्वा तत्र चत्वारिंशत् तर्हि किं भवति तत्र दशजनाः तत्र भाषाद्वयं जानन्ति. दशजनाः केवलं हिन्दीभाषां जानन्ति दशजनाः केवलम् आङ्ग्लभाषां जानन्ति इति भवति. अस्तु यदि एतावत् तत्र एकवारं तत्र लौकिकविषयः अभवत् किन्तु तत्र एकवारम् अन्य कोऽपि वदेत् तत्र केवलम् अभ्यासार्थं तत्र नरसिंहहेग्डे महोदय नमस्कारः.
नमस्कारः महोदय.
नमस्कारः महोदय. तर्हि तत्र एकवारं तत्र त्रिंशत् छात्राः सन्ति खलु महोदय? तर्हि तत्र अत्र दशजनाः ये सन्ति अत्र तत्र कीदृशछात्राः ते?
तत्र ते सर्वे इङ्ग्लिश् अपि जानन्ति हिन्दी अपि जानन्ति.
हिन्दी अपि जानन्ति इति समीचीनम्. अपि ये जनाः अत्र सन्ति तत्र नाम अस्मिन् सन्ति किन्तु अस्मिन् न सन्ति
केवलम् इङ्ग्लिश् जानन्ति.
अपि ये जनाः अत्र सन्ति ते केवलं
केवलं हिन्दी जानन्ति
हिन्दीभाषां जानन्ति. अस्तु समीचीनं महोदय धन्यवादः. तर्हि यदि अस्माकम् यदि अस्माकम् इच्छा अस्ति तत्र ये छात्राः अस्माकं लक्ष्यम् अस्ति तत्र छात्राः ये द्वयमपि जानन्ति इति अस्माकं लक्ष्यं. लक्ष्यं किं? ये छात्राः भाषाद्वयं जानन्ति. तर्हि यदि वयं वदामः अस्तु ते छात्राः हिन्दी जानन्ति इति वदामः नाम तेषु छात्रेषु हिन्दीज्ञानम् अस्ति हिन्दीभाषायाः ज्ञानम् अस्ति इति वदामः अस्माकं लक्ष्यमस्ति ये छात्राः ये दशछात्राः ये अत्र सन्ति। तर्हि तत्र यदि अहं वदामि ते छात्राः सन्ति, ये छात्राः हिन्दीभाषां जानन्ति ते एव दशछात्राः, ये ते दशछात्राः, तत् समीचीनं भवति वा? तत्र चन्द्रमती भगिनी, यदि अहं वदा मम लक्ष्यम्
हिन्दी एव जानन्ति इति वदति चेत् सम्यक्, हिन्दी जानन्ति इति सम्यक् नास्ति।
तर्हि सम्यक् नास्ति, समीचीनं। तर्हि लक्षणम् एतत् हिन्दीभाषाज्ञानम् एतेषु छात्रेषु वर्तते इति यदि वदामि तर्हि तद् लक्षणं नास्ति। किमर्थं नास्ति? तस्मिन् दोषः वर्तते वा? कीदृशः दोषः
वर्तते?
अतिव्याप्तिदोषः वर्तते। किमर्थं? किञ्चित् वदतु।
लक्षणम् अन्यत्र अपि अस्ति, लक्ष्ये एव नास्ति, अन्यत्र अलक्ष्ये अपि अस्ति,
अलक्ष्ये अपि अस्ति, अलक्ष्यम्, एतत् अलक्ष्यमस्ति, एतदपि अलक्ष्यमस्ति, अत्र अपि अस्ति, अलक्ष्ये अस्ति। तर्हि तत्र अस्तु, तर्हि यदि केवलं हिन्दीभाषा इति न, अहं तत्र इङ्ग्लिश् भाषायाः ज्ञानम् इति वदामि। तर्हि तत्र अहं चिन्त्यमस्तु हिन्दीभाषाज्ञानं, तर्हि तस्मिन् दोषः वर्तते, तर्हि एतत् मास्तु, एतत् स्वीकरोमि। तर्हि किम् इदानीमपि दोषः अस्ति वा? इङ्ग्लिश् भाषाज्ञानं चिन्तयामि,
तत्रापि दोषः अस्ति इङ्ग्लिश् भाषा, अतः हिन्दी इङ्ग्लिश् भाषा ज्ञानम् अस्ति, सर्वे न सर्वेषु नास्ति, केचन जनाः हिन्दी एव जानन्ति अत्र, केचन जनाः एव इङ्ग्लिश्।
तर्हि अत्रापि अतिव्याप्तिदोषः वर्तते वा? तत्र तत्र चित्रस्य वर्णनं किम् अस्ति तत्र?
अत्रापि अतिव्याप्तिदोषः अस्ति,
अस्ति हा, अत्रापि अतिव्याप्तिदोषः वर्तते, यतोहि लक्ष्यमस्ति एते दशजनाः, तेषु इङ्ग्लिश् भाषा ज्ञानम् अस्ति खलु, किन्तु दशजनाः दशछात्राः अपि सन्ति ये इङ्ग्लिश् भाषां जानन्ति किन्तु हिन्दीभाषां न जानन्ति। तर्हि तत्र हा तत्र किं भवति, तत्र अलक्ष्ये अपि तत्र ये एतद् इष्टलक्षणम् एतद् इष्टलक्षणम् अस्ति, लक्षणं भवेत् इति अस्माकं चिन्ता, एतद् अलक्ष्ये अपि अस्ति, तर्हि अतिव्याप्तिदोषः। तर्हि केवलम् एतदस्ति चेत् अतिव्याप्तिदोषः, केवलम् एतदस्ति चेत् अतिव्याप्तिदोषः, किन्तु यदि द्वयमपि योजयामः, हिन्दीभाषाज्ञानमपि भवेत् इङ्ग्लिश् भाषाज्ञानमपि भवेत् इति यदि वयं चिन्तयामः, एतदपि भवेत् एतदपि भवेत् लक्ष्ये इति चिन्तयामश्चेत् तर्हि अतिव्याप्तिदोषः भवति वा इदानीम्? न, यतोहि हिन्दीभाषाज्ञानं तत्र अत्र भवति किन्तु अत्र नास्ति, अतः एते जनाः अपगच्छन्ति यदि हिन्दीभाषाज्ञानम् इति चिन्तयामः, अतिव्याप्तिदोषः यत् आसीत् द्वितीयदलस्य अतिव्याप्तिदोषः निवार्यते प्रथमदलेन, अपि प्रथमदलस्य अतिव्याप्तिदोषः अत्र आसीत्, सः दोषः अपगच्छति द्वितीयदलस्य योजनेन, अतः तत्र दलद्वयं भवति चेत् अतिव्याप्तिदोषः अपगच्छति। तर्हि दलद्वयस्य यत्र दलद्वयमस्ति तत्र लक्षणवाक्ये अस्माकं चिन्ता भवेत् तत्र अतिव्याप्तिदोषः अस्ति इति। अस्तु, तर्हि तत्र एकवारं तत्र स्वशब्दैः अन्य कोऽपि वदेत्, तर्हि तत्र अस्तु प्रेमलता भगिनी किञ्चित् वदति वा?
किं महोदय प्रश्न
नाम तत्र केवलम् एकं दलम् अस्ति चेत् दोषः भवति नाम हिन्दीभाषाज्ञानम् इति तत्र लक्ष्यं किम् इष्टलक्षणे
हिन्दीभाषा हिन्दीभाषा इङ्ग्लिश् भाषायामपि ज्ञानं भवति भवितुम् अर्हति एव
वयं केवलं ते छात्राः तत्र तत्र ये छात्राः भाषाद्वयं जानन्ति ते एव अस्माकं लक्ष्यं ते एव अस्माकं लक्ष्यं यदि वयं वदामः येषु छात्रेषु हिन्दीभाषाज्ञानम् अस्ति इति नाम केवलम् एतद् इष्टलक्षणं भवति चेत् तत्र किं भवति लक्षणं भवति वा
न भवति तत्र अतिव्याप्ति भवति
अतिव्याप्तिदोषः भवति किमर्थं किमर्थं
लक्ष्ये दलद्वयम् इष्टः अस्ति
न न केवलम् एकं दलम् अस्ति चेत् दोषः भवति तर्हि किमर्थं समीचीनमेव दोषः अतिव्याप्तिदोषः तर्हि तत्र किम् अस्ति अतिव्याप्तिदोषः नाम लक्ष्ये अस्ति अलक्ष्ये अपि अस्ति तर्हि लक्ष्ये अत्र तु अस्ति खलु एते छात्राः हिन्दीभाषां जानन्ति किन्तु ये दशछात्राः ये सन्ति अलक्ष्य एते अलक्ष्याः अथवा लक्ष्य अलक्ष्ये अपि एतद् ज्ञानम् अस्ति इति कृत्वा एतद् लक्षणं न भवति इष्टलक्षणम् अस्ति किन्तु साक्षात् लक्षणं नास्ति यतोहि दोषः अस्मिन् लक्षणे वर्तते केवलम् एतदेव स्वीक्रियते चेत् अतिव्याप्तिदोषः भवति केवलम् एतत् स्वीकुर्मश्चेत्
तत्रापि तस्मिन् सन्दर्भे अपि दोषः भवति
दोषः वर्तते समीचीनं किन्तु यदि द्वयमपि स्वीकुर्मश्चेत्
लक्षणवाक्यं सम्यक् भवति
सम्यक् भवति इदानीं तत्र किं भवति तत्र अतिव्याप्तिदोषः नास्ति हिन्दीभाषाज्ञानम् अस्ति अत्र अतिव्याप्तिदोषः आसीत् किन्तु इङ्ग्लिश् भाषायाः ज्ञानमपि भवेत् इति कृत्वा एषः अतिव्याप्तिदोषः अपगच्छति प्रथमदलस्य अतिव्याप्तिदोषः द्वितीयदलस्य योजनेन अपगच्छति द्वितीयदलस्य अतिव्याप्तिदोषः अस्ति एते छात्राः खलु तत्र यतोहि एतद् अत्रापि अस्ति किन्तु सः अतिव्याप्तिदोषः प्रथमदलस्य योजनेन सः दोषः निवार्यते यतोहि हिन्दीभाषायाः ज्ञानम् इति यदि वदामः एतत्तु अत्र नास्ति अतः तत्र दोषः नास्ति इति कृत्वा तत्र दलद्वयं यदि योजयामः तत्र अतिव्याप्तिदोषः इदानीं नास्ति अस्तु समीचीनं समीचीनं धन्यवादः भगिनि अतः इदानीं तत्र अस्माकं मूलविषयः नाम रूपस्य लक्षणं तत्र प्रथमम् आसीत् तत्र एतत् किमर्थं तस्य आवश्यकता नास्ति तत्र प्रथमं दलम् आसीत् तत्र रूपं कीदृशः गुणः ग्राह्यः तत्र चक्षुर्ग्राह्यः चक्षुर्ग्राह्यम् इति रूपं कीदृशमस्ति चक्षुर्ग्राह्यमस्ति चक्षुरिन्द्रियग्राह्यमस्ति रूपं तर्हि रूपे रूपं ग्राह्यमस्ति तत्र रूपे ग्राह्यत्वम् अस्ति तर्हि तत्र रूपे ग्राह्यत्वम् अस्ति रूपं ग्राह्यम् अस्ति तर्हि रूपे ग्राह्यत्वं भाववाचक प्रत्ययसंयोजनेन ग्राह्यत्वं भवति अपि नाम चक्षुरिन्द्रियग्राह्यं रूपमस्ति चक्षुरिन्द्रियग्राह्यत्वं रूपे वर्तते अपि रूपम् अन्यद्वितीयदलं किम् आसीत् रूपं चक्षुर्भिन्नेन्द्रिय अग्राह्यं तर्हि तत्र अग्राह्यत्वं तत्र एतत्तु चक्षुरिन्द्रियग्राह्यत्वम् अपि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अग्राह्यत्वम् रूपे अस्ति अपि रूपं गुणः अस्ति कृत्वा गुणत्वमपि रूपे वर्तते तर्हि तत्र धनश्री भगिनी ग्राह्यत्वम् अग्राह्यत्वं गुणत्वम् इति दलत्रयमस्ति इति चिन्तनं तत्र किञ्चित् विवृणतु स्वशब्दैः ग्राह्यत्वं नाम किम् अग्राह्यत्वं नाम किं गुणत्वं नाम किम्
रूपे ग्राह्यत्वमस्ति नाम चक्षुरिन्द्रियैः रूपं ग्राह्यते चक्षुरिन्द्रियग्राह्यत्वं रूपे अस्ति अग्राह्यत्वं
चक्षुरिन्द्रियैः
तत्र ग्रहीतुं शक्यते
तत्र चक्षुरिन्द्रियेण तत्र रूपं गृह्यते तर्हि रूपं चक्षुरेन्द्रियग्राह्यं खलु तर्हि ग्राह्यत्वं कुत्र अस्ति
ग्राह्यत्वं रूपे अस्ति
रूपे अस्ति ग्राह्यं रूपं ग्राह्यम् अस्ति तर्हि रूपे ग्राह्यत्वम् अस्ति खलु अपि अग्राह्यत्वं कुत्र वर्तते
अग्राह्यत्वमपि रूपे अस्ति
रूपे
चक्षुर्भिन्नैः अग्राह्यत्वम्
हा समीचीनं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अपि रूपे अस्ति हा समीचीनं गुणत्वं
गुणत्वमपि रूपे एव अस्ति
गुणः अस्ति तर्हि
गुणः अस्ति
हा तर्हि ग्राह्यत्वमपि रूपे अस्ति अग्राह्यत्वमपि रूपे अस्ति गुणत्वमपि रूपे अस्ति रूपे सर्वत्र अस्ति वा एतत् तत्र दलत्रयं ग्राह्यत्वं सर्वत्र अस्ति
वा
सर्वत्र अस्ति तर्हि तत्र असम्भवदोषः अस्ति वा
न असम्भवदोषः नास्ति
अव्याप्तिदोषः
अव्याप्तिः अपि नास्ति यतोहि कोऽपि एकः भागः अवशिष्टः न वर्तते यत्र एतेषु एकः नास्ति इति
नास्ति खलु तर्हि ग्राह्यत्वम् अथवा ग्राह्यत्वम् अथवा गुणत्वं तत्र लक्ष्ये वर्तते लक्ष्ये सर्वत्र वर्तते खलु अस्माकं लक्ष्यमस्ति रूपं खलु अस्माकं लक्ष्यमस्ति रूपं रूपे सर्वत्र ग्राह्यत्वं वर्तते चक्षुरिन्द्रियग्राह्यत्वं वर्तते चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वमपि सर्वत्र वर्तते रूपे गुणत्वमपि सर्वत्र रूपे वर्तते तर्हि असम्भवदोषः नास्ति तत्र अव्याप्तिदोषः अपि नास्ति तर्हि यदि दोषः अस्ति चेत् केवलं तत्र अतिव्याप्तिदोषः भवेत् तर्हि इदानीं तत्र दलत्रयम् अस्ति तेषां तत्र दलत्रयस्य सार्थक्यं यदि इच्छामः तर्हि तत्र अस्माकं कार्यं किं भवति तत्र केवलम् एकं दलं स्वीकुर्मश्चेत् नाम तत्र ग्राह्यत्वं स्वीकुर्मश्चेत् केवलं ग्राह्यत्वं स्वीकुर्मश्चेत् तत्र किं भवति
अतिव्याप्ति कुत्र कुत्र
अतिव्याप्ति कुत्रापि भवेत् इति चिन्तनं तर्हि आलक्ष्यं किमपि भवेत् यस्मिन्
एतत्
अस्ति ग्राह्यत्वं भवेत् इति यदि प्रदर्शयामः तदा जानीमः अस्तु अतिव्याप्तिदोषः भवति अतः एकं दलं स्वीकुर्मश्चेत् अतिव्याप्तिदोषः, द्वितीयदलं स्वीकुर्मश्चेत् अतिव्याप्तिदोषः, तृतीयदलं स्वीकुर्मश्चेत् अपि अतिव्याप्तिदोषः भवति इति एतत् सर्वं यदि प्रदर्शयामः तर्हि वयं जानीमः अस्तु दलत्रयमपि आवश्यकम् अस्ति. तत्र यथा वेन् डायग्राम् वयं पूर्वं दर्शितवन्तः तत्र अत्र यत्र दलद्वयमस्ति तत्र प्रथमदलम् एतदस्ति हिन्दीभाषायाः ज्ञानम् अत्र वर्तते, इङ्ग्लिश् आङ्ग्लभाषायाः ज्ञानम् अत्र वर्तते. किन्तु अस्माकं लक्ष्यमासीत् तत्र ये छात्राः येषु तत्र ज्ञानद्वयमपि वर्तते एते छात्राः एव वयम् इच्छामः, तदेव लक्ष्यम् इति चेत् यत्र ज्ञानद्वयमपि वर्तते तर्हि वयं तादृशम् अत्रापि कर्तुम् इच्छामः. तर्हि दलद्वयं दलत्रयस्य चित्ररूपेण किं भवति यदि एतदस्ति यत्र ग्राह्यत्वम् अस्ति, ग्राह्यत्वं चक्षुरिन्द्रियग्राह्यत्वम् अपि तत्र अग्राह्यत्वम् एतदस्ति इति चिन्तयतु. अग्राह्यत्वं अपि गुणत्वम् इति चिन्तयामः, गुणत्वम् अस्ति तत् प्रायशः सम्यक् रीत्या चित्रं भवेत् खलु. तर्हि तत्र हा एतत् कुर्मः तर्हि तत्र एतदस्ति ग्राह्यत्वम् एतदस्ति अग्राह्यत्वम् एतदस्ति गुणत्वम्. अस्माकं तत्र रूपं रूपे ग्राह्यत्वमस्ति अग्राह्यत्वमस्ति गुणत्वमपि अस्ति. अतः किमस्ति रूपम् अस्माकं चिन्ता अस्ति रूपं तत्र केवलं तदेव अस्माकं लक्ष्यम् अस्ति. यत्र ग्राह्यत्वमस्ति अग्राह्यत्वमस्ति गुणत्वमपि अस्ति एषः भागः एव, अस्मिन् भागे तत्र ग्राह्यत्वं वर्तते अग्राह्यत्वमपि वर्तते गुणत्वमपि वर्तते. किन्तु अस्मिन् भागे तत्र ग्राह्यत्वम् अस्ति किन्तु अग्राह्यत्वमपि नास्ति गुणत्वमपि नास्ति. अत्र अग्राह्यत्वम् अस्ति किन्तु ग्राह्यत्वं नास्ति गुणत्वं नास्ति इति तत्र अनेके भागाः सन्ति तत्र. किन्तु अस्माकं लक्ष्यमस्ति यत्र ग्राह्यत्वम् अस्ति अग्राह्यत्वम् अस्ति गुणत्वमपि अस्ति. तर्हि केवलम् एकं दलम् इति चिन्तयामः तर्हि तद्दलं कुत्र अस्ति अत्र सर्वत्र वर्तते तर्हि अलक्ष्ये अपि वर्तते इति आगच्छति. अस्तु तर्हि अग्रे सरामः. तर्हि यदि तत्र प्रथमं दलम् एव स्वीकुर्मश्चेत् तत्र अतिव्याप्तिदोषः भवति इति तथा आरभ्य अस्माकं परिशीलनं भवेत् तर्हि दलत्रयमपि आवश्यकम् इति अस्माकम् इच्छा. अस्तु तर्हि अग्रे पठामः. धन्यवादः भगिनी तनुषी भगिनी. अस्तु अग्रे तत्र एतावत् हा अस्तु तत्र शोभभगिनी प्रथमदलम् एव अस्ति चेत् तत्र कः दोषः इति अस्ति एकवारं वदति वा तत्र.
आं महोदय, प्रथमदलः इत्युक्ते तत्र केवलम् आद्यः प्रकारः
तत्र
चक्षु किं महोदय
ग्राह्यत्वं
चक्षुरिन्द्रियजन्यविषयत्व एव लक्षणम् अस्ति चेत् ग्राह्यत्वम् एव अस्ति चेत् तत्र अन्यत्र अपि तत्र अतिव्याप्तिदोषः भवितुम् अर्हति. यतोहि तत्र चक्षुषा घटः अपि ग्राह्यते इति कृत्वा
गृह्यते
चक्षुषा घटः अपि गृह्यते इति अतिव्याप्तिदोषः भवति.
हा नाम अतिव्याप्ति समीचीनम्. अतिव्याप्तिदोषः कुत्र अस्ति तर्हि?
दोषः तत्र चक्षुषि एव अस्ति.
हा दोषः यत् जलम् अस्ति तस्मिन् जले तस्मिन् नाम तत्र ग्राह्यत्वं चक्षुरेन्द्रियग्राह्यत्वम् इति चिन्तयामः तस्मिन् दोषः अतिव्याप्तिदोषः वर्तते. यतोहि
दले वर्तते. क्षम्यतां, दले वर्तते
नाम ग्राह्यत्वं रूपे अस्ति. ग्राह्यत्वं रूपे अस्ति, रूपे सर्वत्र अस्ति खलु. ग्राह्यत्वं रूपे सर्वत्र अस्ति किन्तु ग्राह्यत्वं चक्षुरिन्द्रियग्राह्यत्वं रूपे अस्ति, रूपे सर्वत्र अस्ति, अपि रूपभिन्नपदार्थे अपि
अस्ति.
अस्ति तर्हि चक्षुरिन्द्रियग्राह्यत्वम् इति लक्षणं रूपस्य लक्षणं न भवति, यतोहि अलक्ष्ये अपि अस्ति खलु.
सत्यं महोदय. इदानीं यदुक्तं ग्राह्यत्वम् अग्राह्यत्वं गुणं सर्वे रूपे एव वर्तन्ते इति, इत्युक्ते तत्र रूपस्य किं तत्र लक्षणे रूप किं चक्षुर्मात्रग्राह्यगुणः रूपम् इति भवति चेत् रूपे एते सर्वे वर्तन्ते इति कथं निरूपितवन्तः महोदय?
एतावत् न निरूपितवन्तः. एतावत् वयं किं निरूपितवन्तः? रूपे एते वर्तन्ते. एतत् समीचीनं खलु. रूपे चक्षुरिन्द्रियग्राह्यत्वम् अस्ति खलु रूपे.
अस्ति
नाम तत्र विषयत्वं नाम चक्षुर् इन्द्रियजन्य एतत् सर्वं विषयत्वं ग्राह्यत्वम् इति लघुरूपेण वदामः
तर्हि
चक्षुरिन्द्रियग्राह्यत्वं रूपे वर्तते.
अस्ति
चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं रूपे वर्तते न वा?
अग्राह्यत्वं रूपे वर्तते
चक्षुर्भिन्न चक्षुर्भिन्नेन्द्रियग्राह्यत्वं
वर्तते. सत्यं, चक्षुर्भिन्न अग्राह्यत्वं रूपे वर्तते.
रूपे वर्तते. गुणत्वं?
गुणत्वं तु रूपे वर्तते एव.
रूपे वर्तते तर्हि
अस्तु.
दलत्रयम् अपि तत्र एतदपि एतदपि रूपे वर्तते, एतदपि रूपे वर्तते, एतदपि रूपे वर्तते. इदानीं वयं किम् इच्छामः? रूपं वयं वदतु भगिनी.
हा इदानीं किम् इच्छामः चेत् तत्र दलत्रयस्य आवश्यकता अस्ति इति वा महोदय?
तदेव दलसार्थक्यम्.
ग्राह्यत्वमपि भवेत्, भिन्न इन्द्रियैः अग्राह्यत्वमपि भवेत्, अपि च गुणत्वं तु भवेत् एव.
तदा एव इति अतः वयम् अस्माकं तत्र चित्ररूपेण पश्यामः. तत्र तत्र यत्र रक्तवर्ण तत्र वृत्तम् अस्ति खलु, तर्हि तत्र किमस्ति? यत्र यत्र केवलं रक्तवर्ण तत्र एषः भागः खलु, तत्र किम् अस्ति? तेषु यत्र ग्राह्यत्वम् अस्ति तद् एतद् भागः खलु. एतद्भागः अस्मिन् तत्र अस्य अन्ते तत्र अन्ते अस्ति चेत् ग्राह्यत्वम् अस्ति, बहिः अस्ति चेत् ग्राह्यत्वं नास्ति खलु. तर्हि अत्र यदि किमपि कोऽपि पदार्थः अत्र अस्ति चेत् तत्र ग्राह्यत्वं चक्षुरिन्द्रिय ग्राह्यत्वम् अत्र वर्तते. यथा अस्माकं छात्राणां चर्चा अभवत्, येषु छात्रेषु हिन्दीभाषाज्ञानमस्ति, येषु छात्रेषु आङ्ग्लभाषा, तत्र नाम अत्र हिन्दीभाषायाः ज्ञानम् अत्र अस्ति, येषु छात्रेषु वर्तते खलु.
आं महोदय, अहं चिन्तयामि इदानीम् अवगतमिति. तत्र चक्षुरिन्द्रिय चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं तस्मिन् कथम् अस्ति इति तत्र क्लेशः आसीत, अवगतमिति मन्ये महोदय.
समीचीनं वा? तर्हि
समीचीनम्.
अस्तु अस्तु, तर्हि तत्र तर्हि वदतु, अत्र यदि कोऽपि पदार्थः अत्र अस्ति चेत् तत्र अस्मिन् पदार्थे किम् अस्ति अपि किं नास्ति
कोऽपि पदार्थः अस्ति इति वा
न अत्र अत्र
गुणत्वम् इति स्वीकृतं खलु हा गुणत्वं तत्र सर्वत्र अस्ति तस्मिन् भागे अन्यत्र नास्ति
किन्तु अहम् एतद् केवलम् एकं पदार्थं स्वीकरोमि नाम एकं पदार्थं यत् यथा एकः छात्रः अत्र अहं स्वीकरोमिश्चेत् एषः छात्रः केवलम् आङ्ग्लभाषा एव जानाति खलु
जानाति
यदि अहम् अत्र एकः छात्रः इति वदामि तर्हि एषः छात्रः आङ्ग्लभाषामपि जानन्ति हिन्दीभाषामपि जानन्ति खलु जानाति खलु किन्तु एषः छात्रः केवलम् आङ्ग्लभाषां जानन्ति खलु यतोहि एषः अत्र नास्ति अस्मिन्नपि भवति चेदेव तत्र ज्ञानद्वयम् अस्ति खलु किन्तु एतद् डाट् बिन्दु अत्र एव अस्ति तर्हि तेन वयं किं सूचयामः एकः छात्रः यस्य आङ्ग्लभाषाज्ञानम् अस्ति किन्तु हिन्दीभाषायाः ज्ञानं नास्ति खलु
सत्यं
तथैव अत्र अत्र पदार्थः तत्र वृत्ते ये पदार्थाः सन्ति अन्ते ते सर्वे तत्र सर्वत्र ग्राह्यत्वं चक्षुरिन्द्रियग्राह्यत्वम् अस्ति अत्र
अग्राह्यत्वम् अस्ति
अग्राह्यत्वम् अस्ति अत्र सर्वत्र
गुणत्वम् अस्ति
गुणत्वम् अस्ति तर्हि वयं चिन्तयामः तत्र रूपं तु अत्र अस्ति खलु रूपं अत्र अस्ति यतोहि रूपे
अस्माकं लक्ष्यम् अस्ति
रूपं तर्हि रूपे ग्राह्यत्वम् अस्ति अग्राह्यत्वम् अस्ति गुणत्वमपि अस्ति इति इति वयं जानीमः तर्हि तत्र नाम रूपम् अत्र अस्ति एव किन्तु केवलं रूपमेव तत्र अस्ति अन्यत् किमपि नास्ति इति वक्तुम् इच्छामः नाम तत्र केवलं ग्राह्यत्वम् इति स्वीकुर्मश्चेत् तत्र अतिव्याप्तिदोषः अस्ति नाम तत्र एतत् रक्तवर्ण भागः तत्र सः केवलम् एतद् नास्ति तत्र बृहत् अस्ति इति वक्तुम् इच्छामः नाम तथैव तत्र अतिव्याप्तिदोषः वर्तते यत् चित्रम् एतादृशमेव वर्तते नाम तत्र जना तत्र पदार्थाः सन्ति यत्र ग्राह्यत्वं वा अथवा ग्राह्यत्वं वर्तते किन्तु अग्राह्यत्वम् अथवा गुणत्वं नास्ति पदार्थाः सन्ति यत्र पदार्थः अस्ति यस्मिन् अग्राह्यत्वम् अस्ति किन्तु ग्राह्यत्वमपि गुणत्वं नास्ति इति यदि प्रदर्शयामः तर्हि रूपभिन्नपदार्थाः सन्ति इति यदि प्रदर्शयामः तर्हि दलत्रयमपि आवश्यकम् इति जानीमः तत्र नाम इदानीं वयं किम् इच्छामः यदि कोऽपि पदार्थः अस्ति यस्मिन् ग्राह्यत्वम् अस्ति अग्राह्यत्वम् अस्ति गुणत्वम् अस्ति सः पदार्थः रूपं भवेत् इति अस्माकम् इच्छा खलु रूपे त्रयमपि अस्ति किन्तु यत्र त्रयमपि अस्ति तत्र तद् रूपे एव भवेत् तर्हि ग्राह्यत्वं रूपे अस्ति चक्षुरिन्द्रियग्राह्यत्वं रूपे अस्ति किन्तु चक्षुरिन्द्रियग्राह्यत्वं रूपभिन्नपदार्थे अपि अस्ति उदाहरणार्थं भवत्याः उदाहरणं किमासीत्
तत्र घटे अपि अस्ति
घटः अपि चक्षुरिन्द्रियग्राह्यः अस्ति घटः तर्हि घटे अपि चक्षुरिन्द्रियग्राह्यत्वम्
अस्ति
अस्ति अतः ग्राह्यत्वं रूपे लक्ष्ये वर्तते रूपे सर्वत्र वर्तते किन्तु
अन्यत्रापि वर्तते
अन्यत्रापि एकमेव अस्ति एकमेव पदार्थः एकः एव पदार्थः अस्ति चेदपि यस्मिन् तत्र ग्राह्यत्वं
वर्तते
किन्तु पदार्थः विजातीयः पदार्थः अस्ति चेत् तत्र अतिव्यापिदोषः अतिगरः इति एकेन उदाहरणेन अतिव्याप्तिदोषः साधितः अस्ति. तत्र बहुषु पदार्थेषु इति विषयः नास्ति, एकः एव पदार्थः अस्ति चेदपि विजातीयपदार्थः यस्मिन् ग्राह्यत्वमस्ति तर्हि अतिव्याप्तिदोषः भवति. अस्तु, समीचीनं, धन्यवादः. अन्य कोऽपि प्रश्नः अस्मिन् विषये? तत्र अस्माकं कार्यं किम् इति प्रसङ्गे तत्र प्रश्नः भवति चेत् कृपया पृच्छन्तु. मम उदाहरणं, लौकिक उदाहरणं तत्र शब्दप्रयोगः तत्र आसीत्, किन्तु तत्र किं व्यवहारः आसीत् न वा इति, नाम ज्ञानजनकम् आसीत् न वा इति न जानामि. तर्हि प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. तत्र चित्रस्य अवगमनं, चित्रं किं वक्तुम् इच्छति इति सर्वे अवगच्छन्ति वा? अस्तु, समीचीनं. तर्हि अस्तु, इदानीं तर्हि द्वितीयदलस्य, केवलं द्वितीयदलम् अस्ति चेत् तत्र किं भवति इति चिन्तयामः. तर्हि द्वितीयदलं तत्र लघुवाक्यं दीर्घवाक्यम् अस्ति किन्तु अवगमनम् अस्ति इति मन्ये. तर्हि तत्र अशोक महोदय, तत्र केवलं द्वितीयदलम् अस्ति चेत् किं भवति इति एकवारं तत्र पठित्वा वदति वा महोदय, आरम्भं करोतु.
अस्तु महोदय,
अतः
चक्षुर् इन्द्रिय निष्ठ जनकतानिरूप चक्षुर्भिन्न इन्द्रियनिष्ठ जनकतानिरूपित जन्यता आश्रय प्रत्यक्षनिष्ठ विषयता निरूपित विषयत्व अभावः एव लक्षणमस्तु. एवं सति न घटे अतिव्याप्तिः.
तत्र केवलं द्वितीयदलम् अग्राह्यत्वं नाम एतत् चित्रम् अस्ति, चक्षुर्भिन्नेन्द्रियम् अत्र अस्ति,
चक्षुर् घटे त्वक् इन्द्रिया तस्य प्रत्यक्षं भवति, अतः अग्राह्यत्वस्य अभावः नास्ति अति, अतः घटः
सत्यं सत्यं महोदय, घटः उदाहरणेन उदाहरणरूपेण न सम्यक् भवति खलु?
आम् महोदय, यतोहि घटरूपं नास्ति इति जानीमः.
हा, तर्हि तत्र अस्माकम् इच्छा किम् अस्ति? द्वितीयदलं केवलं चेत्
न श्रूयते महोदय.
अस्माकम् इच्छा किम् अस्ति? यदि केवलं द्वितीयदलम् अस्ति चेत्
अतिव्याप्ति भवति इति उदाहरणम्
इति इच्छामः, तत्र अतिव्याप्तिदोषः अस्ति इति इच्छामः. तर्हि अतिव्याप्तिदोषः अस्ति इति इच्छामः, तर्हि तस्य प्रदर्शनं केन भवति? किमपि यत्किमपि भवेत्, एकमेव एकम् उदाहरणं भवेत् यस्मिन् एतद् अस्ति अपि यः पदार्थः रूपं नास्ति खलु, रूपं, तदा एव वयं जानीमः अतिव्याप्तिदोषः वर्तते. यतोहि विजातीये पदार्थे एतद् अस्ति, आलक्ष्ये एतद् अस्ति इति जानीमः. तर्हि अत्र अग्राह्यत्वं नाम चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति पदार्थः रूपे अस्ति खलु?
आं महोदय,
नाम चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं रूपे अस्ति, नाम भिन्नेन्द्रिय अग्राह्यत्वं नाम चक्षुर्भिन्नेन्द्रियेण एषः पदार्थः न गृह्यते इति एव द्वितीयदलम् आसीत्. अतः यदि इदानीं वयं किम् इच्छामः, तत्र यः पदार्थः तत्र अग्राह्यत्वं केवलं रूपे अस्ति इति तत् समीचीनं नास्ति, रूपभिन्नपदार्थे अपि अस्ति इति इच्छामः. तर्हि तत्र घटः किमर्थं तत्र उदाहरणं न भवति?
यतोहि तस्मिन् अभावः नास्ति, अतः अभावस्य अभावात् तद्रूपं नास्ति इति जानीमः, अतः अतिव्याप्ति नास्ति.
तर्हि तत्र घटे किं ग्राह्यत्वम् अस्ति अथवा अग्राह्यत्वम् अस्ति? चक्षुर्भिन्नेन्द्रिय ग्राह्यत्वम् अस्ति वा अग्राह्यत्वम् अस्ति वा?
अग्राह्यत्वं नास्ति.
अग्राह्यत्वं नास्ति, तर्हि ग्राह्यत्वम् अस्ति. चक्षुर्भिन्नेन्द्रिय ग्राह्यत्वं नाम यत् किमपि इन्द्रियम् अस्ति यत् चक्षुरिन्द्रियं नास्ति किन्तु तेन इन्द्रियेण ग्राह्यम् अस्ति, ग्राह्यः अस्ति घटः. अपि भवान् उक्तवान् तत्र त्वगिन्द्रियेण तत्र घटस्य ज्ञानं भवति, तर्हि घटः त्वगिन्द्रियेण ग्राह्यः अस्ति, तर्हि ग्राह्यत्वं घटे वर्तते, अग्राह्यत्वं घटे न वर्तते. तर्हि अस्तु, तर्हि घटः उदाहरणं नास्ति. घटे घटस्य उदाहरणेन अतिव्याप्तिदोषः न साधितुं शक्नुमः, खलु?
आं महोदय.
द्वितीयदलस्य अतिव्याप्तिदोषः घटस्य उपयोगेन न साधितुं शक्नुमः. तर्हि अन्यत् उदाहरणम् आवश्यकम् अस्ति, यदि यत्र अतिव्याप्ति येन अतिव्याप्तिदोषः साधितुं शक्नुमः. तर्हि तत्र इदानीं तत्र अतीन्द्रिये इति अस्ति महोदय, तत्र पठतु.
अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे,
क्षम्यतां, तत्र यद् वाक्यमस्ति तत्र तद् एकवारं पठतु महोदय. चक्षुर्भिन्नं,
चक्षुर्भिन्नं यत् त्वग् इन्द्रियं तज्जन्य प्रत्यक्ष विषयत्वम् एव घटे वर्तते, विषयत्व अभावः नास्ति इति न अतिव्याप्ति अतिव्याप्तिः इति चेत्. पूर्वं यद् उक्तं तदेव लिखितं, चक्षुर्भिन्न इन्द्रियः त्वग् इन्द्रियः अस्ति, तज्जन्यप्रत्यक्षविषयत्वं घटे अस्ति, अतः विषयत्व अभावः नास्ति, अतः अतिव्याप्ति नास्ति इति.
समीचीनं, समीचीनं महोदय. तर्हि तत्र जन्यप्रत्यक्ष इत्युक्ते प्रत्यक्षज्ञानं, प्रत्यक्षज्ञानस्य विषयः घटे वर्तते, अतः विषयत्वं, विषयः घटः अस्ति, तर्हि घटे विषयत्वं वर्तते, तर्हि विषयत्व अभावः घटे नास्ति इति कृत्वा अतिव्याप्तिदोषः न भवति. समीचीनं महोदय. अग्रे इदानीम् अतीन्द्रिये,
अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः तथा हि आद्यपतन असमवायिकारणरूपं गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यं, यथा आकाशादीनाम् अनुमानेन प्रमाणेन एव सिद्धिः, तद्वत् एव गुरुत्वस्य अपि. तथा चक्षुर्भिन्नानि यानि घ्राणादीनि इन्द्रियाणि तज्जन्यप्रत्यक्षे न गुरुत्वं विषय इति आयाताम्, एवं सति तादृशप्रत्यक्षविषयत्व अभावः गुरुत्वे अस्ति इति गुरुत्वे अतिव्याप्तिः. एकः प्रश्नः महोदय, आकाशः सरलम् उदाहरणं,
सत्यं 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 सत्यं, किन्तु यत् पुस्तके अस्ति तस्य विवरणं कुर्मः, किन्तु समीचीनमेव महोदय. अतः तत्र अतिव्याप्तिदोषः अस्ति इति सरलरूपेण ज्ञातुं शक्नुमः. सत्यमेव. तर्हि तत्र अस्तु, तत्र पुस्तके यदस्ति तत् एकवारं पठामः, तदनन्तरं भवान् तत्र किमर्थं तत्र सरल उदाहरणमपि भवति इति वदतु.
अस्तु महोदय.
किन्तु
अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः लिखितं परं पृष्ठः एकोत्तरशतं पृष्ठः विवरणं दत्तं यतोहि गुरुत्वः अतीन्द्रियः इति गुरुत्व एव रूप गुरुत्वगुणः अतीन्द्रियः इति वक्ष्यमाणः
वक्ष्यमाणः नाम अग्रे उच्यते नाम तस्य इदानीमेव तत्र वयं गुणानां तत्र परिशीलनं कुर्वन्तः स्मः आरम्भं तस्य परिशीलनं प्रारम्भितवन्तः तत्र अतः तत्र किम् अग्रे गुण तत्र एषः गुणः गुरुत्वम् इति गुणः तस्य विषयः अग्रे आयाति इदा एतावत् वयं तस्य परिशीलनं न कृतवन्तः किन्तु एषः गुणः कीदृशः अतीन्द्रियः गुणः अस्ति अतीन्द्रियः नाम किं
किमपि इन्द्रियेण न ग्राह्यम् अतः चक्षुर्भिन्न इन्द्रियेण अपि न ग्राह्यम् अतः चक्षुर्भिन्न विषयतः अभावः अस्ति
विषयतः अभावः नाम चक्षुर्भिन्नेन्द्रिय अग्राह्यः
अग्राह्यः
गुणः एषः गुणः भवति अतः एषः गुणे अस्मिन् गुणे अग्राह्यत्वं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अस्ति
अस्ति अपि किन्तु गुरुत्वं रूपं नास्ति अतः
रूपं नास्ति अतः अतिव्याप्तिदोषः भवति अतिव्याप्तिदोषः
महोदय आद्य आद्यपतन पतन असमवायिकारणरूपम् आद्यपतन
असमवायिकारणरूपं गुरुत्वं तत्र अग्रे आयाति गुरुत्वम् इति तत्र ग्राविटि इति चिन्तयतु तत्र गुरुत्वं नाम वेट् यत् येन तत्र वेट् भवति तदस्ति गुरुत्वं तद् गुरुत्वं नाम हेविनेस् तत्र गुरुत्वं तद् तेन एव तत्र यदि तत्र वयं किं कन्दुकं स्वीकुर्मः तत्र केवलं कन्दुकम् उपरि हस्ते स्वीकृत्य यदि तत्र कन्दुकस्य तत्र त्यजामः कन्दुकं त्यजामः किं भवति कन्दुकम् अधोभागे गच्छति खलु अधोभागं गच्छति कन्दुकं पतति तदेव तत्र पतनं तत्र तस्य असमवायिकारणं वयं तत्र कारणं तत्र कारणे तत्र समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति दृष्टवन्तः अग्रे अपि पुनः तत्र तस्य
विवरणं
विवरणं भवति किन्तु एषः गुणः तत्र असमवायिपतनस्य असमवायिकारणं भवति इति तत्र गुरुत्वम् इति गुणः अस्ति असमवायिकारणम् अस्ति तत्र आद्यपतनस्य इति किन्तु तत् तत् अग्रे आगच्छति इदानीं केवलं विषयः अस्ति तत्र एषः गुणः रूपं नास्ति अपि एषः गुणः अतीन्द्रियः अस्ति इति इदानीं वदतु महोदय इदानीम् आकाशः इति
उदाहरणं यथा आकाशः अनुमानेन ज्ञातव्यं तथा एव गुरुत्वमपि अनुमानेन एव ज्ञातव्यम् अतः प्रत्यक्षं नास्ति तस्य प्रत्यक्षं नास्ति
इति अस्ति तर्हि अतः इदानीं समीचीनं तत्र तर्हि तत्र इदानीम् आकाशम् इति उदाहरणं स्वीकुर्मश्चेत् तत्र अग्राह्यत्वं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् आकाशे अस्ति वा
आम् अस्ति यतोहि तद् अतीन्द्रियः अस्ति
आकाशः अतीन्द्रियः अस्ति इति कृत्वा आकाशे तत्र चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अस्ति अपि सर्वेन्द्रिय अग्राह्यत्वम् अस्ति तर्हि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वमपि आकाशे अस्ति आकाशः रूपं नास्ति अतः अतिव्याप्तिदोषः अस्ति यदि वयं द्वितीयदलमेव स्वीकुर्मः तत्र गुरुत्वम् अत्र किमर्थं तर्हि तत्र गुरुत्वम् इति उदाहरणं स्थापितमस्ति
सर्व अतीन्द्रियाणि गुणानि उदाहरणानि इति प्रायः
समीचीनं. किन्तु न तत्र किमस्ति, तत्र दल, तत्र यदि वयं दलद्वयमपि दलत्रयं यत्र भवति तत्र किं भवति, तत्रापि अतिव्याप्तिदोषः वक्तुम् इच्छामः खलु. यत्र केवलं दलद्वयं दलत्रयमपि अस्ति तदा किं भवति, एतद् उदाहरणं तत्र गुणत्वम् इति उदाहरणं तत्र कार्यं करोति.
अस्तु अस्तु, परम् अनन्तरं तस्य आवश्यकमस्ति, अतः इदानीमेव
इदानीमेव स्थापितमस्ति. किन्तु यत् भवान् वदति समीचीनमेव, केवलं दलं द्वितीयदलम् अस्ति चेत् अतिव्याप्तिदोषः सुलभतया साधितुं शक्नुमः. अस्तु समीचीनं महोदय, एतावत् समीचीनं. तत्र अन्य कोऽपि वदेत्, यतोहि तत्र सर्वेषां कृते सम्यक् अवगमनं भवेत् इति. तर्हि तत्र उषा भगिनी एकवारं वदति वा तत्र द्वितीयदलम् इति अतः आरभ्य एकवारं
प्रयत्नं करोमि महोदय. चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् इति द्वितीयदलं, द्वितीयदलम् एव स्वीकुर्मः चेत् प्रथमदले घटे घटे अपि प्रथमदले घटे अतिव्याप्ति अस्ति, बट् द्वितीयदलमेव अस्ति चेत् रसनेन्द्रियं गृह्यते चेत् अतिव्याप्ति निवारितं भवति. परन्तु त्वक् इन्द्रियं स्वीकुर्मः चेत् विषयत्व अभावः नास्ति, विषयत्व अभावः नास्ति त्वक् इन्द्रिये
स्यात्. एकनिमिष, तत्र द्वितीयदलम् अग्राह्यत्वं खलु, चक्षुर्भिन्नेन्द्रिय
अग्राह्यत्वं,
तत्र एष एतद् अग्राह्यत्वं रूपे अस्ति खलु.
आम् आं महोदय,
रूपे अग्राह्यत्वम् अस्ति, यतोहि रूपं केवलं तत्र चक्षुरिन्द्रियेण
ग्राह्यम्
अस्ति, अन्य तत्र भिन्नेन्द्रियैः अग्राह्यम् अस्ति रूपम्. इदानीं तत्र अतिव्याप्तिदोषः अस्ति इति चिन्तनं खलु अस्माकम्.
आम् आं महोदय,
तर्हि किं दातव्यम्, एकम् उदाहरणं दातव्यं यस्मिन् यस्मिन् अग्राह्यत्वम् अस्ति. अतिव्याप्तिदोषः कथं साधयामः, एकम् उदाहरणं वदामः, एतत् उदाहरणं स्वीकरोतु यत्र
अग्राह्यत्वम्
अस्ति अपि उदाहरणं रूपं नास्ति खलु.
उदाहरणं रूपं नास्ति,
रूपम् अतः उदाहरणं रूपं न भवेत् अपि उदाहरणे अग्राह्यत्वं भवेत्. इदानीं किं घटः इति उदाहरणेन स्वीकर्तुं शक्नुमः वा?
घटः इति उदाहरणेन न स्वीकर्तुं शक्नुमः, यतोहि त्वक् इन्द्रियम् इत्यनेन घटः घटः
गृह्यते
घटः गृह्यते.
तर्हि घटे ग्राह्यत्वमस्ति अथवा अग्राह्यत्वमस्ति, नाम तत्र चक्षुर्भिन्नेन्द्रिय ग्राह्यत्वमस्ति वा अथवा अग्राह्यत्वमस्ति वा?
घटे चक्षुर्भिन्न इन्द्रिय ग्राह्यत्वम् अस्ति,
ग्राह्यत्वम् अस्ति, समीचीनम्. चक्षुर्भिन्नेन्द्रिय ग्राह्यत्वम्, यतोहि त्वगिन्द्रियेण गृह्यते घटः. तर्हि घटे ग्राह्यत्वमस्ति अग्राह्यत्वमस्ति वा?
अग्राह्यत्वं नास्ति महोदय.
तर्हि अग्राह्यत्वं घटे नास्ति, तर्हि किं घटम् इति उदाहरणं तत्र कार्यं करोति वा तत्र अतिव्याप्तिदोषस्य प्रदर्शनार्थं?
नास्ति महोदय,
कार्यं
करोति.
अतः अन्यत् उदाहरणम्
अन्यत् अन्यत् उदाहरणम् अत्र गुरुत्वम् इति स्वीक्रियते चेत्,
तत्र तर्हि तत्र एतद् वाक्यं वदतु, तत्र अतीन्द्रिय इति अस्ति,
अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः अस्ति.
तर्हि कथं तत् गुरुत्वम् इति गुणः अस्ति,
गुरुत्वम् इति गुणः अस्ति, तत् गुणः केनापि इन्द्रियेण ज्ञातुं शक्नुमः
न शक्नुमः न शक्नुमः
न शक्नुमः.
अतः तत्र सः गुणः गुरुत्वमिति गुणः चक्षुर्भिन्नेन्द्रियेण तत्र सर्वेन्द्रियेण अग्राह्यः
अग्राह्यः भवति, अग्राह्यत्वम् अस्ति,
अग्राह्यत्वं तस्मिन् गुणे अस्ति. गुरुत्वम् इति गुणे सर्वेन्द्रिय
अग्राह्यत्वम् अस्ति,
नाम त्वगेन्द्रियेण अग्राह्यत्वं, चक्षुरेन्द्रियेण अग्राह्यत्वं, घ्राणेन्द्रियेण अग्राह्यत्वम् अस्ति. तर्हि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अस्ति वा गुरुत्वे?
चक्षुर्भिन्न अग्राह्यत्वं
भिन्नेन्द्रियम्
अस्ति
अस्ति. तर्हि गुरुत्वम् इति पदार्थः रूपं नास्ति, तर्हि
अलक्ष्ये अस्ति इत्यनेन अतिव्याप्तिदोषम्
अग्राह्यत्वं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति रूपे तु अस्ति, किन्तु
गुरुत्वमपि गुरुत्वे अपि अस्ति इत्यनेन अन्यत्रापि अस्ति इत्यनेन अतिव्याप्तिदोषः
अतिव्याप्तिदोष दल केवलं द्वितीयदलम् इति स्वीकुर्मश्चेत् द्वितीयदले अतिव्याप्तिदोषः भवति, नाम अग्राह्यत्वम् इति तद् लक्षणम् इति चिन्तयामश्चेत् तद् लक्षणं नास्ति, यतोहि तस्मिन् अग्राह्यत्वे
अतिव्याप्तिदोषः
वर्तते, यतोहि अग्राह्यत्वम् अलक्ष्ये अपि अस्ति इति अस्ति. हा, इदानीं तत्र अशोकमहोदयस्य प्रश्नः आसीत् तत्र किमर्थं गुरुत्वम् इति, तद् यत् वयम् एतावत् न जानीमः, किमर्थं तत्र अन्यत् उदाहरणमस्ति वा तत्र सरल उदाहरणं यस्मिन् अग्राह्यत्वम् अस्ति?
आकाशः इति
आकाशे तत्र आकाशः तत्र अस्ति इति कथं जानीमः? आकाशस्य प्रत्यक्षज्ञानम् अस्ति वा अस्माकं?
प्रत्यक्षज्ञानं नास्ति, अनुमानेन
वयं
आकाशं
साधितवन्तः आकाशः अस्ति इति. तत्र शब्दस्य
शब्दज्ञानम्
अस्ति श्रोत्रेन्द्रियेण शब्दः ग्राह्यः, तर्हि शब्दः इति गुणः अस्ति इति कृत्वा गुणस्य आशयः कोऽपि भवेत् इति एव तत्र आकाशस्य
आकाशः इति
ज्ञानं, तर्हि अनुमानेन साधितः आकाशः. तर्हि आकाशः आकाशस्य ज्ञानं केवलम् अनुमानेन भवति, प्रत्यक्षज्ञानं नास्ति. तर्हि आकाशः तत्र चक्षुर् तत्र आकाशः त्वगिन्द्रेण ग्राह्यः वा आकाशः?
नास्ति महोदय. सो
तर्हि चक्षुर्भिन्नेन्द्रिय
अग्राह्यत्वम् आकाशे
अग्राह्यत्वं आकाशे अस्ति. तर्हि आकाशः रूपं नास्ति किन्तु आकाशः आकाशे अग्राह्यत्वम् अस्ति, तर्हि अतिव्याप्तिदोषः अस्ति खलु, केवलं विद्यदलं स्वीकुर्मश्चेत्. अस्तु, धन्यवादः भगिनी. अस्तु, अन्य कोऽपि अपि वदेत् धन्यवादः. तर्हि तत्र नीता भगिनी एकवारं वदतु तत्र.
अत्र अस्माकम् उद्देशः अस्ति ललत्रयस्य आवश्यकता लक्षणवाक्ये, तत् केवलं द्वितीयदल इति स्वीकुर्मः चेत् लक्षणवाक्ये दोषरहितलक्षणं भवति वा न वा. तद्द्वितीयदलमस्ति चक्षुर्भिन्ने इन्द्रियैः अग्राह्यत्वम् इति अस्ति. तत्र रूपे चक्षुर्भिन्ने इन्द्रैः अग्राह्यत्वम् अस्ति. तत्र वयम् उपस्थापनं किम् आवश्यकमस्ति यत् चक्षुर्भिन्नैः इन्द्रियैः अग्राह्यत्वं रूपे अस्ति, तादृशी अग्राह्यत्वं विजातीयेषु अलक्षेषु यदि भवति चेत् अतिव्याप्तिदोषः भवति तद्दोषरहितत्वं न भवति तत् अग्राह्यत्वम् अन्ये इन्द्रिये अपि यदा भवति अन्ये पदार्थे रूपभिन्नपदार्थेषु यदि वर्तते चेत् तत्र अतिव्याप्तिदोषः भवति तत्र प्रथमतः वयं घटस्य उदाहरणं दृष्टवन्तः तत्र घटः चक्षुभिन्नैः इन्द्रियैः ग्राह्यमस्ति यतोहि तत्त्वग् इन्द्रियेण वयं घट इति रूपस्य ग्राह्यं कर्तुं शक्नुमः तत्
घटस्य ग्राह्यं घटस्य घटस्य रूपम् इति नास्ति घटस्य
सम्यक् घटस्य ज्ञानं भवति तत्र घटस्य उदाहरणम् अत्र सम्यक् नास्ति अतिव्याप्तिदोष यदि वयं अतिव्याप्तिदोषस्य चिन्तनं वयं कुर्मः तत् घटस्य उदाहरणं सम्यक् नास्ति अनन्तरं वयं गुरुत्वम् इति स्वीकुर्मः गुरुत्वं चक्षुभिन्नैः चक्षुर्भिन्ने इन्द्रियैः अग्राह्यमस्ति परन्तु तत्र अलक्ष्यमस्ति तत्र रूपं नास्ति तस्मिन् रूपं नास्ति अतः तत् अलक्ष्यमस्ति ततः तादृश आकाश इति स्वीकुर्मः चेत् आकाश तु चक्षुर्भिन्नैः इन्द्रियैः अग्राह्यमस्ति अतीन्द्रियैः अग्राह्यमस्ति चक्षुभिन्नैरिन्द्रियैः अग्राह्यम् अस्ति किन्तु तस्मै रूपं नास्ति अतः तत्र
तद्रूपं नास्ति
आकाशे तत् रूपं नास्ति अतः
आकाशे न आकाशः रूपं नास्ति
हा 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 क्षम्यताम् आकाशः रूपं नास्ति अतः तत्र अलक्ष्यम् इति अस्ति
आकाशः अलक्ष्यमस्ति आकाश
अलक्ष्यम्
अलक्ष्यः अस्ति हा अपि आकाशे तत्र अग्राह्यत्वं वर्तते खलु
आकाशे अग्राह्यत्वं वर्तते अतीन्द्रियैः ग्राह्यत्वं वर्तते अतः चक्षुभिन्यै अग्राह्यत्वं वर्तते किन्तु
इन्द्रियैः तत्र अतीन्द्रियः न इन्द्रियैः अग्राह्यत्वम् इति इन्द्रियैः अग्राह्यत्वम् इति आकाशे वर्तते खलु आकाशः इन्द्रियैः अग्राह्यः
इति तत् आकाश अलक्ष्यम् अस्ति
तर्हि
इत्युक्ते तत्र अतिव्याप्तिदोषः यदि आकाश वा गुरुत्व उदाहरणं वयं स्वीकुर्मः चेत् तत्र अतिव्याप्तिदोषः सम्भवति
नाम तत्र तेन अतिव्याप्तिदोषः अस्ति इति ज्ञातुं शक्नुमः नाम लक्ष्ये विजाति तत्र लक्ष्यभिन्नपदार्थे तत्र अग्राह्यत्वं वर्तते अतः अग्राह्यत्वमिति सम्यक् लक्षणं नास्ति यतोहि दोषः हा दोषः अतः केवलं द्वितीयदलं स्वीकुर्मश्चेत्
केवलं द्वितीयदलं स्वीकुर्मः चेत् तत्र अतिव्याप्तिदोषः सम्भवति यतोहि तत्र अलक्ष्येषु अपि चक्षुभिन्नैः इन्द्रियैः अग्राह्यत्वं वर्तते
हा इति अस्ति समीचीनं भगिनि हा इति अस्ति अपि तत्र गुरुत्वम् इति उदाहरणं भवति आकाशः अपि उदाहरणं भवति किमर्थं तत्र उदाहरणद्वयमपि सरलमस्ति वा अथवा
आकाश इति उदाहरणं सरलमस्ति किन्तु गुरुत्वं विषये गुरुत्वम् इत्युक्ते मास् वा
हा इति अस्ति भगिनि हा तेन येन हा येन वेट् आगच्छति हा सत्यं हा तत्र वेट् अथवा मास् इति चिन्तयतु हा नाम येन तत्र पतनं भवति हा तर्हि तत्र किन्तु तत्र गुरुत्वम् इति गुणस्य विषये एतावत् न पठितवन्तः किन्तु आकाशः इति जानीमः तर्हि आकाशः अतीन्द्रियः इति जानीमः तर्हि तत्र किं भवति अग्राह्यत्वं वर्तते अतः तत्र सरलमस्ति आकाशः इति उदाहरणं सरलमस्ति आकाशे अग्राह्यत्वम् अस्ति अतः तत्र केवलं चक्षुर्भिन्नेन्द्रियः अग्राह्यत्वम् इति वदामः तत्र दोषः वर्तते समीचीनं भगिनि धन्यवादः
इदानीं तत्र आकाशादीनाम् इति किमर्थं दत्तमस्ति
नाम आकाशादीनाम् अनुमानेन प्रमाणेन इव सिद्धिः तद्वदेव गुरुत्वस्यापि नाम आकाशादीनाम् इत्युक्ते येषां पदार्थानाम् अनुमानेन एव सिद्धिः भवति नाम तेषां प्रत्यक्षं ज्ञानं नास्ति अनुमानेन एव तत्र ते सन्ति इति वयं साधितुं शक्नुमः तेषां प्रमाणं तेषां ज्ञानं तत्र प्रमाणं नाम ज्ञानं तेषां प्रमाणम् आकाशस्य प्रमाणं किम् इत्युक्ते अनुमानमेव प्रमाणं खलु तर्हि आकाशस्य सिद्धिः कदा कथं भवति अनुमानेन एव तस्य सिद्धिः भवति अनुमानमेव तस्य प्रमाणम् अतः अनुमानेन एव प्रमाणम् अनुमानेन प्रमाणम् एव सिद्धिः तथा तद्वदेव गुरुत्वस्यापि नाम गुरुत्वस्य गुरुत्वम् इति गुणस्य अपि प्रत्यक्षज्ञानं न भवति अनुमानेन एतादृशः गुणः पदार्थः अस्ति इति केवलम् अनुमानेन एव साधितुं शक्नुमः
आचार्य अहं चिन्तयामि आकाश इति अर्थात् आकाश कालदिक् आत्ममनांसि ते गृह्यन्ते खलु कालदिक्
यत्किमपि तत्र अनुमानेन एव तस्य ज्ञानम् अस्ति तावदेव आदीनां नाम येषां ज्ञानम् अनुमानेन येषां प्रत्यक्षज्ञानं नास्ति अनुमानेन एव साधितवन्तः साधितुं शक्नुमः
तर्हि कालस्यापि कालस्यापि अनुमानेन
अनुमानेन एव अस्ति खलु सत्यं
हा
अतः तत्र हा समीचीनं भगिनि अतः इदानीं तत्र वदन्तु तत्र केवलं द्वितीयद मृणलिभग्नि अथवा अन्य कोऽपि तत्र केवलं द्वितीयदलम् अस्ति लक्षणवाक्यरूपेण यदि स्वीकुर्मः नाम लक्षणवाक्यं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति स्वीकुर्मः इदानीम् अग्राह्यत्वं रूपे तु वर्तते किन्तु अन्यत्र कुत्र कुत्र वर्तते
अस्माकम् अत्र विवक्षा अस्ति यदि केवलं द्वितीयं दलं योजयामः चक्षुर्भिन्न अग्राह्यत्वं रूपे अस्ति इति यदि वयं योजयामः
रूपे तु अस्ति किन्तु अन्यत्र अपि अस्ति वा एतत्
अग्राह्यत्वं तर्हि दोषं दर्शयितुं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् अन्यत्र अपि अस्ति इति उदाहरणं दातव्यम् तर्हि अत्र गुरुत्वं यत् रूपं
गुरुत्वम् इति उक्तं किन्तु सरल उदाहरणमस्ति आकाशः खलु
आम् आम्
तर्हि आकाशः आकाशे एतादृशः अग्राह्यत्वं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् आकाशे अस्ति अन्यत्र कुत्र अस्ति एतद् अग्राह्यत्वम्
अन्यत् उदाहरणं वा आत्मनि अपि
आत्मनि अस्ति समीचीनम् अन्य कोऽपि
दिक्
धन्यवादः मनसि अपि समीचीनम् अन्य कोऽपि वदतु तत्र अन्यत् उदाहरणानि अन्यानि उदाहरणानि वदन्तु तत्र ईश्वरे अपि अनुमानेन एव साधितवन्तः तर्हि तत्रापि अग्राह्यत्वम् अस्ति किं भगिनि
दिक् दिक्
दिक् हा दिशि अपि अग्राह्यत्वम् अस्ति
धर्म अधर्म
हा धर्म अधर्म हा तत्रापि तत्र अग्राह्यत्वम् अस्ति अपि अनेकानि उदाहरणानि सन्ति तत्र चक्षुः अतीन्द्रियः अस्ति खलु चक्षुः अस्ति इति तस्य ज्ञानं कथं भवति अनुमानेन एव तर्हि चक्षुः अपि चक्षुर्भिन्नेन्द्रिय अग्राह्यः अस्ति खलु अग्राह्यत्वं चक्षुषि भवति तर्हि तत्र त्वचि सर्वत्र अतः अनेकानि उदाहरणानि सन्ति यत्र अग्राह्यत्वं वर्तते. अतः स्पष्टं भवेत् द्वितीयदलम् अस्ति चेत् अतिव्याप्तिदोष अस्ति एव इति. तर्हि प्रथमदलम् अस्ति चेत् अतिव्याप्तिदोषः, द्वितीयदलम् अस्ति केवलं प्रथमदलम् अस्ति चेत् अतिव्याप्तिदोषः, केवलं द्वितीयदलम् अस्ति चेदपि अतिव्याप्तिदोषः, इदानीं तृतीयदलम् अस्ति चेत् केवलं तृतीयदलम् अस्ति चेत् तत्र अतिव्याप्तिदोषः.
अत्र तेजसि अपि वक्तुं शक्नुमः वा उदाहरणं? चक्षुरितरेन्द्रियत्वं तेजसि अस्ति.
तत्र अन्य कोऽपि वदन्तु, अन्य कोऽपि वदतु तत्र तेजसि अतिव्याप्तिदोषः अस्ति न वा इति.
भास्वरशुक्लरूपमिति भास्वरशुक्लरूपं दृश्यते खलु,
तर्हि चक्षुषा
चक्षुषा
ग्राह्यमस्ति, तेजसः ज्ञानं चक्षुषा भवति, किन्तु तत्र चक्षुर्भिन्नेन्द्रियेण तेजसः ज्ञानं भवति वा?
नास्ति इति मन्ये महोदय.
भवति खलु त्वगेन्द्रियेण भवति.
यतोहि तत्र तेजसि किम् अस्ति?
ईदृशस्पर्शः
अस्ति, उष्णस्पर्शः भवति,
शीतस्पर्शः
तत्र जलस्य
जले
जले उष्णस्पर्शः तेजसि अस्ति. तर्हि उष्णस्पर्शः तेजसि अस्ति इति कृत्वा यदि वयं तत्र स्पर्शः तत्र त्वचा अपि तत्र तेजसः ज्ञानं भवति इति मन्ये खलु.
आम् आम्. इदम् उदाहरणं घटवत् अस्ति, घटवत् त्वगेन्द्रियेण
समीचीनं.
तर्हि चतुर्विंशतिगुणेषु बहूनि गुणानि एतावद् एव सन्ति चक्षुषा न गृह्यन्ते
इति अस्ति भगिनि. सत्यं सत्यम्. अतः एव तत्र दलत्रयम् अस्ति,
सत्त्वविभागसंयोग इत्यादि परत्व अपरत्व
एव तत्र. किन्तु गुरुत्वम् इति तत्र अतीन्द्रियः अस्ति इति कृत्वा तत्र तस्य स्थापनम् अत्र कृतं, यतोहि तस्य उपयोगः अग्रे अपि भवति. गुणगुणः अस्ति अपि अतीन्द्रियः अस्ति इति कृत्वा. किन्तु उदाहरणानि अनेकानि सन्ति. सत्यं भगिनि. अस्तु, इदानीं तत्र केवलं तृतीयदलम् अस्ति चेत् एतत्तु सरलमेव अस्ति. तृतीयदलम् अस्ति गुणत्वं, तर्हि तत्र केवलं गुणत्वम् अस्ति चेत् तत्र पुनः अतिव्याप्तिदोषः भवति, यतोहि गुणत्वं तत्र चतुर्विंशतिगुणेषु अपि अस्ति यथा तत्र विमला भगिन्या उक्तं. तर्हि तत्र किं भवति? अत्रापि अतिव्याप्तिदोषः भवति. रसादिगुणेषु गुणत्वम् इति जातिः रसादिगुणेषु वर्तते इति कृत्वा रसादौ सर्वं तत्र सर्वत्र अस्ति इति कृत्वा तत्र अतिव्याप्तिदोषः भवति. अतः एकमेव दलम् अस्ति चेत् प्रथमदलं वा द्वितीयदलं वा तृतीयदलं वा अस्ति चेत् तत्र अतिव्याप्तिदोषः भवति. इदानीं तत्र अग्रे तत्र दलद्वयम् अस्ति चेत् नाम प्रथमापि द्वितीयदलम् अथवा द्वितीयदलं तृतीयदलम् अथवा प्रथमापि तृतीयदलम् अस्ति चेत् तत्र का स्थितिः इति अपि तत्रापि अस्माकं परिशीलनं भवेत्. तर्हि तत्र ग्राह्यत्वं चक्षुरिन्द्रियग्राह्यत्वम् अपि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति स्वीकुर्मश्चेत् तत्र चक्षुरिन्द्रियेण ग्राह्यम् अपि चक्षुर्भिन्नेन्द्रिय अग्राह्यं, तदा किं भवति? गुरुत्वमिति तत्र उदाहरणरूपेण न कार्यं करोति, यतोहि गुरुत्वं तु तत्र अग्राह्यमस्ति. चक्षु इन्द्रियेण अपि अग्राह्यः गुणः अस्ति गुरुत्वं, तर्हि तद् उदाहरणरूपेण कार्यं न करोति इति. तर्हि अन्यत् उदाहरणं तत्र आवश्यकं भवति. अतः तत्र एतत् सर्वम् अग्रिमे वर्गे कुर्मः. किन्तु एतावत् दलत्रयमस्ति, एकम् एकं दलमस्ति चेत् निमित्तेन पर्याप्तं न भवति, अतिव्याप्तिदोषः भवति इति चिन्तनं तत्र स्पष्टं भवेत्। अपि द्वितीयदलं यत् किञ्चित् क्लिष्टरूपेण अत्र पुस्तके दत्तमस्ति, किन्तु तस्य उपयोगः अपि अस्ति, अग्रे तस्य उपयोगः भवति इति कृत्वा गुरुत्वम् इति उदाहरणं स्वीकृतं, किन्तु वयं ज्ञातवन्तः अनेकानि उदाहरणानि सन्ति येन द्वितीयदलम् अस्ति चेत् तत्र अतिव्याप्तिदोषः भवति इति साधितुं शक्नुमः। तर्हि अद्यतनवर्गे किं पठितवन्तः, तत्र कथं तत्र अतिव्याप्तिः दोषदलत्रयमस्ति चेत् तत्र एतादृशं चित्रं भवति येन लक्ष्यं केवलम् अत्र अस्ति इति वयम् इच्छामः प्रदर्शयितुं, तर्हि अतिव्याप्तिदोषः भवति। यदि केवलम् एकं दलम् अस्ति चेत् अथवा दलद्वयम् अस्ति चेत् एतत् सर्वम् अस्माकम् एतानि सर्वाणि कार्याणि अस्माभिः करणीयानि सन्ति, तत्र कार्यत्रयं कृतवन्तः, कार्यत्रयम् अवशिष्टम् अस्ति, प्रथमं द्वितीयदलं, प्रथमं तृतीयदलम् अपि द्वितीयमपि तृतीयदलम् अस्ति चेत् का स्थितिः इति तद् अग्रे गेम् वर्गे परिशीलयामः। तर्हि समीचीनमस्ति, धन्यवादः, अग्रिमे वर्गे मिलामः, तर्हि नमस्कारः।